अथ अष्टम स्कंध
अथ चतुर्दश अध्याय मनु आदि के पृथक पृथक कर्मों का निरूपण। राजोवाच मन्वन्तरेषु भगवान् यथा मन्वादयस्तु मे जस्मिन् कर्मणि ये ये न निजुक्तास्तद्वदस्व मे। ऋषिर्वाच मनो मनपुत्राश्च मुनयश्च महीपते इन्द्रासुरगणाश्चैव सर्वे पुरुष शासना। यज्ञादयो या कथिता पौरुष्यस्तनवो नृप मन्वादयो जगद्यात्रां नयन्त्याभिप्रचोदिताः। चतुर्युगान्ते काले न ग्रस्तान् श्रुतिगान् यथा तपसा ऋषि उपश्यन् यतो धर्मः सनातनः ततो धर्मं चतुष्पादं मनवो हरिणोदिताः। युक्ताः सञ्चार्यन्तर्धा स्वे स्वे काले महिम् नृप पालयन्ति प्रजापाला जावदन्तं विभागशः। यज्ञ भाग भुजो देवा ये च तत्रान्विताश्च तैः। इन्द्रो भगवता दत्त्राम् त्रैलोक्य श्रियमूर्जिताम् भुञ्जानः पाति लोकांस्त्रीन् कामम् लोके प्रवर्षति। ज्ञानम् चानुजुगम् ब्रूते हरिः सिद्ध स्वरूप धृक् ऋषि रूप धरः कर्म योगम् योगेश रूप धृक् सर्गम् प्रजेश रूपेण दशन् हन्यात् स्वराट् वपुः काल रूपेण सर्वेषाम् अभवाय पृथक् गुणः। स्तूयमानो जनैरेभिर्माय्या नाम रूपया विमोहितात्मभिर्नाना दर्शनैर्न च दृश्यते। एतत् कल्प विकल्पस्य प्रमाणम् परिकीर्तितम् यत्र मन्वन्तराण्याहु चतुर्दश पुराविदः। इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् अष्टमस्कन्धे चतुर्दशोऽध्यायः। हरे कृष्ण जय श्री कृष्ण।